ऋषि उवाच पुरा शुंभ निशुंभभ्याम शूरभ्यां शचीपते त्रैलक्यं जग्रभागश्च धीतामोदबलश्रयत् तावेव शूर्यतां तद्वदधिकारं तथैलवं पौरेरमथजम्यं च चक्राते वरुणस्य च तदेव पवनर्भिं च चक्रतुर्बह्निकर्म च ततदेवाभिनिर्धूता भ्रष्टराज्याः पराजिताः हिताधिकारस्त्रिदशस्तभ्यं सर्वे निराकृताः महाशूरभ्यां तान् देवीं संस्मरन्त्यपराजितम् तया समाकं वरो दत्तो यथा पत्सु स्मृताखिलाः भवतां नाशयिष्यामि तत्क्षणात् परमापदः इति कृत्वा मतिं देवा हीमवन्तं नगेश्वरं जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतिष्ठुः देवाऊचुः नमो देव्यै महादेव्यै शिवायै सततं नमः नमः प्रदित्यै भद्रायै नियतः प्रणतास्मतम् रौद्रायै नमो नित्यायै गौर्यै धत्यै नमो नमः जस्नायै चेन्द्ररूपिण्यै सुखायै सततं नमः कल्याण्यै प्रणतावृद्ध्यै सिद्ध्यै कुर्मो नमो नमः नैरित्यै भूभृदां लक्ष्मै सर्वाण्यै ते नमो नमः दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ह्यत्यै तथैव कृष्णायै धूम्रायै सततं नमः अतिसौम्यातिरौद्रायै मदास्तस्यै नमो नमः नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः या देवी सर्वभूतेषु विष्णुमायेति शब्दिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु चेतनेत्यभिधीयते नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु निद्रारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु सुधारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु छायारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु जातिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु लज्जारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु शांति रूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु कांति रूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु लक्ष्मी रूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु दयारूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु मातृरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या भूतेषु सर्वं तस्यै व्याप्तिदेव्यै नमो नमः। चिदिरूपेण या कृष्णम् एतद्व्याप्यस्थिता जगत् नमस्तस्यै 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 नमो नमः। स्तूतासूरैः पूर्वमभीष्टसंश्रयात् तथा सूरेन्द्रेण दीनेषु सेविता करतु शानः शुभो हेतुरीश्वरी शुभानि भद्राणि अभिहन्तु जापदः। या सम्प्रतं चद्धत दैत्यतापीतैरस्माभिरीशा च शूरैर्नमस्यते। या च स्मृता तत्क्षणमिव हन्तीनः सर्वापदभक्ति दीनम्रमूर्तिभिः। ऋषिरुवाच एवं स्तवादियुक्तानां देवानां तत्र पार्वती स्नातुमभ्याजयौतो ये जह्नव्या नृपनन्दन साब्रवित्तां सुरां शुभ्रुर्भवद्भिः स्तीयतिक्रका शरीरकोशतश्चर्ष्याः समुद्भूताव्रविच्छीवा स्तत्रं ममैतत्क्रियते शुम्भदैत्यनिराकृतै देवै समेतै समरे निशुम्भेन पराजितै शरीरकोशाद्यत्तस्या पार्वत्या निःश्रीतम्बिका कौशिकीति समस्तेषु तत्लोकेषु गीयते। तस्यां विनिर्गतायां तु कृष्णाभूत् सापि पार्वती कालिकेति समाख्याता हिमाचलकृताश्रया ततम्बीकं परं रूपं बिभ्राणं सुमनोहरम् ददार्श चण्डमुण्डश्च भित्तौ शुम्भनी शुम्भयो तभ्यां शुम्भाय चख्याता अतीव सुमनोहरा कप्यास्ते स्त्री महाराज भाषयन्ती हिमाचलम् नैव तादृक्कचिद्रूपं दृष्टं केनोचिदुत्तमम् जयतां कप्यशौ देवी गृह्यतं चाशुरेश्वर श्रीरत्नमल्लिकार्वाङ्गी योगयन्ती दिशास्तिशा साधु तिष्ठति दैत्येन्द्र तान् भवान् द्रष्टुमर्हति जानी रत्नानि मणयो गजस्वादीनि वै प्रभो त्रैलक्येतु समस्तानि सम्प्रदान्न भान्ति ते गृहे ऐरावतः समानीतु गजरत्नं पुरन्दरात् परिजाततरुश्चायन् तथैव चैश्रवाहयः विमानं हंससंयुक्तम् एतत् तिष्ठति चिन्दने रत्नभूतमिहानीतं यदाशुर्दीधसद्भुतं निधीरेश महापद्मः समानीतधनेश्वरात् किञ्जालकीनिङ्गदौचाभिर्मालामम्लानपङ्कजं छत्रन्ते वारुणङ्गेः कञ्चनस्रवितिष्ठति तथायं श्यन्दनोऽवरु यः पुराशीत् प्रजापते मृत्तरूतिक्रन्तिदा नाम शक्तिभीषत्वयाधीता पाशः सलिलरज्जस्य भ्रातुस्तव परिग्रहे निशुम्भस्याभिजाताश्च समस्तारत्नजातयः बह्नीरपी ददौ तुभ्य मग्निशौचे च वाससि एवं दैत्येन्द्ररत्नानि समस्तन्याहीतानि ते स्त्रीरत्नमेषा कल्याणी त्वयाकस्मान्न गृह्यते ऋषिरुवाच निशम्येति वचः शुम्भः सतदाचण्डमुण्डयोः प्रेषयामाश सुग्रीवं दूतं दिव्या महाशूरम् इति चेति च वक्तव्या सा गत्वा वचनान् मम यथा चभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु स तत्र दत्त्वा यत्रास्ते शैलदेशेति शोभने सा देवी तं तदप्राह श्लक्ष्णं मधुरया गिरा दूतौवाच देवी दैत्येश्वरः शुम्भ स्त्रैलक्ये परमेश्वरः दूतोऽहं प्रेषितस्तेन त्वत्स्वकाशमिहागतः अव्याहतज्ञः सर्वासु यः सदा देवयोनिषु निर्जिताखिल दैत्यादिः स यदाह श्रेणुस्तत् मम त्रैलक्यमखिलम् मम देवावशानुगाः यज्ञभागानहं सर्वा नूपाश्नामि पृथक् पृथक् त्रैलक्ये वररत्नानि मम वश्याम्यशेषतः तथैव गजरत्नानि धृत्वा देवेन्द्रवाहनम् क्षीरुदुमथनद्भूतमश्वरत्नं ममामरै उच्चैश्रवशसन्नं तत् प्रणीपत्या समर्पितं यानि चन्यानि देवेषु गन्धर्वेषु रगेषु च रत्नभूतानि भूतानि तानि मध्येव शोभने स्त्रीरत्नभूतां त्वां देवि लोकमन्यामहे वयं सातमस्मानुपागच्छ यत् रत्नो भुजो वयं मां वाममानुजं वापीनि शुम्भो मुरुविक्रमं भजत्वं चञ्चलापङ्गी रत्नभूताशि वै यतः परमैश्वर्यमतुलं प्राप्स्यसि मत्परिग्रहात् एतद्बुद्ध्या समालोच्य मत्परिग्रहतां व्रज ऋषिरुवाच इत्युक्ता सा तदा देवी गम्भीरान्तस्मिता जगौ दुर्गा भगवती भद्रा ययेदं धार्यते जगत् दिव्युवाच सत्यमुक्तं त्वयानत्र मिथ्या किञ्चित् तयोदितं त्रैलक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः किन्तु अत्र यत् प्रतिज्ञातम् मिथ्या तत् क्रियते कथम्। श्रूयतामल्पबुद्धित्वात् प्रतिज्ञाया क्रीता पुरा। जो मां जयति संग्रामे जो मे दर्पं बपोहति जो मे प्रतिबलो लोके समे भर्ता भविष्यति। तदा गच्छतु शुम्भोत्र निशुम्भो वा महाशुरः मां जित्वा किञ्चिरेनत्र पाणिं गृह्णातु मे लघु। दूत उवाच अवलिप्ताश्मैवं त्वं देवी ब्रूहि ममाग्रतः। त्रैलत्येकः पुमांस्तिष्ठे दग्रे शुम्भानी शुम्भयो अन्येषामपि दैत्यानां सर्वे देवान् वैदिधि। तिष्ठन्ति सम्मुखे देवी किं पुनः स्त्रीतमेकिका। इन्द्रात्याः सकला देवा स्तस्थूर्जे सङ्न संयुगे शुम्भादीनं कथं तेषां स्त्रीप्रजाश्यसि सम्मुखम्। सा त्वं गच्छ मयैव उक्ता पार्श्वं शुम्भनी शुम्भयो हेशाकर्षणनिर्भूत गौरवामागमिष्यसि। देव्युवाच इवमेतादबली शुम्भो निशुम्भश्चातिनिर्जवान् किं करोमि प्रतिज्ञामि जगनालोचिता पुरा। सत्वं गच्छमयोक्तन्ते जगेतत् सर्वमादृतः तदा चक्ष्वाशुवृन्दाय स च युक्तं करतु यत् इति मार्कण्डेयपुराणे सावर्णीके मन्वन्तरे देवी माहात्म्ये दिव्यादूतसंवादः।